आरम्भं कुर्मः वा निवेदिता भगिनी?
आम भगिनी करोतु।
अस्तु, प्रार्थनया आरम्भं कुर्मः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं, वदामि
संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्। वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय,
नैजं
सर्वं दहाम्यहं संस्कृतस्य सदा भक्तो। वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजम्, आत्मानं माहुतं मन्ये। वन्दे संस्कृतमातरम्।
वन्दे संस्कृतमातरम्। नमस्कारः। वयमत्र भोजचम्पां हनुमतः वचनं रावणं प्रति पठितवन्तः। पुनः रावणः तस्य प्रतिकारं कथं विदधाति, किं करोति, तस्य दण्डनं किम् इति चिन्तयति, तदपि दृष्टवन्तः। तस्य पुनस्मारणं कुर्वन्तः अग्रे सरामः। आञ्जनेयः अत्र वदति, बाहुचन्दननिषङ्गकोटरात् उद्धृतो रघुपतेः शरोरगः, प्राणवायुम् अविनीत तावकं कालयापनम् अपास्य पास्यति। हे अविनीत रावण इति तस्य सम्बोधनं कृत्वा वदति।
किं श्लोकं भगिनि?
आम्, हरि ओम्।
किं किं श्लोकं, संख्या किम्?
फिफ्टि वन्। तद्वा पुनस्मारणम्?
बाहुचन्दन,
तस्यैव किल पुनस्मारणम् अद्य। अस्तु, वदति, रामरूप रामस्य बाहुरूपवृक्षे विद्यमान तूणीररूपकोटरमस्ति किल, तस्मिन् सर्परूपबाणः अस्ति। सः बाणः दयित्वा साक्षात् त्वरया आगत्य तव प्राणान् पास्यति, अविलम्बेन एव तव प्राणान् पास्यति। अतः भवान् रामस्य शरणं गच्छतु इति तं वदति। अग्रे अग्रिमश्लोके रामशरस्य पूर्वमेव परीक्षणं कृतमस्ति। रामशरः, शरस्य पराक्रमः पूर्वमेव दृष्टः अस्ति। पराक्रमः कथम् इति चेत्, मारीचस्य वधः अभवत्, अनन्तरं वालिवधः अपि वधमपि अकरोत् रामः। अतः रामबाणस्य पराक्रमः दृष्टपूर्वः एव। तदपि मारीचः कीदृशः राक्षससैन्येषु सैन्ये पराक्रमशाली अस्ति। पुनः वाली रावणमेव पराजितवान्, तादृशः सः। तादृशपराक्रमशालिनौ द्वौ अपि रामबाणेन हतौ। अतः भवतः अपि रक्षणस्य उपायः रामशरणं विना, रामशरणागतिं विना अन्य उपायः नास्ति इति सूचयति। माया मृगे समरनाटकसूत्रधारे, शाखा मृगे च भवतः प्रतिकूलबाले, दृष्टोद्यमस्य रघुनायकसायकस्य, मुक्त्वा प्रणाम कवचं कवचं किमन्यत्। मुक्त्वा इत्युक्ते तद्विहाय इति अर्थः। अत्र राम बाण इति यद् कवचमस्ति रामबाणः तदेव तदेकमात्रकवचं त्वां रक्षितुमर्हति. अन्यत् यत् यत्किमपि कवचं भवान् धरतु नाम तत्सर्वमपि विफलम् एव भवति त्वद्रक्षणे. कारणं रामबाणस्य पराक्रमः दृष्टपूर्वः एव. अतः अमोघः शरः यस्य व्यर्थता एव न भवति, यस्य वैफल्यमेव न भवति, तादृशः अमोघः बाणः. अतः रामबाणमेव यदि भवान् कवचरूपेण यदि स्वीकरिष्यति तर्हि तव रक्षणं साध्यम् इति वदति. अत्र श्रीमद्वाल्मीकिरामायणे किम् उक्तम् इति पश्यामः. अत्र वदति सर्वलोकेश्वरस्य इह कृत्वा विप्रियम् ईदृशं रामस्य राजसिंहस्य दुर्लभं तव जीवनम्. सर्वलोकेश्वरः अस्ति श्रीरामः, इह अस्मिन् लोके अस्मिन् समये तस्य विप्रियम् ईदृशं, तस्य अप्रियं भवान् यद् कुर्वन् अस्ति, सीता अपहरणम् अनन्तरं तस्य पुनः प्रत्यर्पणे अपि भवान् हठं कुर्वन् अस्ति, न करोषि. अतः तद् यद् विप्रियं, दूतवचनमपि न शृणोति भवान् इति, यद् विप्रियं कुर्वन् अस्ति तादृशस्य रामस्य राजसिंहस्य यद् विप्रियं भवान् कुर्वन् अस्ति तस्य परिणामः कः भवति इत्युक्ते तव जीवनमेव दुर्लभं भवति इति वदति. येन कारणेन तथा वदति ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा इन्द्रः महेन्द्रः सुरनायको वा स्थातुं न शक्ताः युधि राघवस्य. यथा रामबाणस्य पराक्रमम् अत्र वालीवधम् अनन्तरं मारीचवधम् इति अनयोः अत्र सन्दर्भं दर्शयति. अत्र ब्रह्मा वा भवतु, इन्द्रः वा भवतु, ये केऽपि ते स्थातुं न शक्ताः कुत्र युधि युद्धे राघवस्य पुरतः स्थातुं न शक्ताः इति. अतः तवापि सामर्थ्यं न भवति रामेण सह योद्धु इति. एवं निशम्य एतद् श्रुत्वा रावणः किं कृतवान्? एवं निशम्य कुपितः पिशिताशनेन्द्रः प्राणान् अमुष्यः रतेति भटानवादीत् आजन्म शुद्धमतिः अत्र विभीषणस्तं दूतो नवध्य इति शास्त्रगिरारुरोध. एवं श्रुत्वा कुपितः राक्षसेन्द्रः रावणः अमुष्य प्राणान् हरत, एतस्य प्राणान् हरन्तु अपनयन्तु इति त्वभटान् उक्तवान् अवादीत् अवदत् उक्तवान्. आजन्म शुद्धमतिः विभीषणः, जन्मनः प्रभृति एव सः निष्कल्मष बुद्धिः अस्ति, तादृशः विभीषणः तं रुरोध, तं निवारितवान्, एतस्मात् पापात् निवारितवान्. किम् उक्त्वा? दूतः नवध्यः इति शास्त्रवचनद्वारा तं निवारितवान्. शास्त्रगिरा शास्त्रवचनेन तं रुरोध, निवारितवान्. अत्र गद्यभागे अग्रे अस्ति रावणः अपि अत्र विभीषणवचनम् अङ्गीकृतवान्. आम् सत्यं, भवान् यद्वदति दूतः न वध्यः इति, तद् अहमपि अङ्गीकरोमि, किन्तु एषः वानरः दण्ड्यः एव, दण्डयितुं योग्यः, एषः न त्यक्तव्यः, अतः एतस्य किं दण्डनं दद्याम् इति विचिन्त्य सः भटान् वदति. एनं वानरं बद्ध्वा एतस्य लाङ्गूले, एतस्य पुच्छे, एतस्य पुच्छम् अग्निना प्रज्वाल्य एनं सर्वत्र वीथिषु चत्वरेषु एतं नयन्तु, अनन्तरम् एतस्य दोषानपि उद्घोषयन्तु इति भटान् सः आदिशति. रावणः अपि विभीषणभाषणम् अङ्गीकृत्य प्लवङ्गानाम् अङ्गेषु लाङ्गूलम् एव वरम्, प्लवङ्गानां लाङ्गूलं पुच्छमेव प्रियम् अङ्गं भवति, यथा गजस्य शुण्डा प्रिया भवति गजस्य, तथैव लाङ्गूलम् एतेषां बहु प्रियं भवति. अतः तदेव कार्पासवाससा कार्पासवस्त्रेण संवीतं तस्य संवेष्टनं कृत्वा वह्निसात् कृत्य अग्निना तद् प्रज्वाल्य चत्वरे चत्वरे वीथिषु दोषानुद्घोष्य एतस्य दोषान् सर्वेषां पुरतः उक्त्वा सप्रहारं ताडनसहितं नगरं परितः एनं सञ्चारयत इति राक्षसान् आदिदेश रावणः. अत्र श्रीमद्वाल्मीकिरामायणे उक्तमस्ति रावणः कथं विभीषणवचनस्य अङ्गीकारं वदति. सम्यगुक्तं हे भवता दूतवध्या विगर्हिता, अवश्यं तु वधाय अन्यः क्रियतामस्य निग्रहः. अस्य वधाय अन्यः निग्रहः क्रियताम्, अन्यं कमपि उपायं कुर्मः एतस्य दण्डनाय इति वदति. कपीनां किल लाङ्गूलम्, इष्टं भवति भूषणं, तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु. कपिलां लाङ्गूलमेव इष्टं भूषणं भवति, अतः एतस्य पुच्छं दीप्यताम् अग्निसात् कुर्वन्तु, तेन दग्धेन सह गच्छतु, दग्धेन लाङ्गूलेन सह गच्छतु. इदानीम् अद्य किं भवति, तेषु तथा कुर्वाणेषु यदा राक्षससैनिकाः एवं कृतवन्तः तदा इति अर्थः, सत्सप्तमी प्रयोगः, तेषु तथा कुर्वाणेषु, ते यथा तेषु तथा कुर्वत्सु इति अपि वक्तुं शक्नुमः. यदा ते तथा कृतवन्तः, किं कृतवन्तः, एतस्य लाङ्गूलं वस्त्रेण कार्पासवस्त्रेण वेष्टितं कृत्वा तदग्निसात् कृत्वा पुनः सर्वत्र एतं सञ्चारयन्तः ते गतवन्तः, अनन्तरं चत्वरेषु तत्र तत्र एतस्य दोषान् अपराधान् उद्घोषयन्तः, एतं मध्ये मध्ये ताडयन्तः, एतं ते नीतवन्तः. तथा यदा राक्षससैनिकाः कुर्वन्तः आसन् तदा तदा किं भवति, निर्णयाविषयम् अस्य बालतः,
निर्णयाविषयम् अस्य बालतः,
निकारनिकुरुम्बकर्बुरः,
निकुरुम्बकर्बुरः
निर्निमेष गणभाग्यसञ्चयात्,
भगवान्
अग्नेः प्रादुर्भावः प्रकटनम् अभवत् इति अर्थः. उषर्बुधः इत्युक्ते अग्निः, अग्नेः प्रादुर्भावः अभवत्, प्रकटनम् अभवत्. पदच्छेदं पश्यामः, निर्णयाविषयम् अस्य बालतः कर्णिकारनिकुरुम्बकर्बुरः निर्निमेषगणभाग्यसञ्चयात् उन्मिमेष भगवान् उषर्बुधः। प्रतिपदार्थं पश्यामः, निर्णयाविषयं निर्मर्यादं यथा स्यात् तथा, इत्युक्ते सीमां विना परिमितिमेव विना। अस्य बालतः हनुमतः पुच्छतः, वालः पुच्छः लाङ्गूलम्, एतत् सर्वं पर्यायपदानि एतानि। अस्य बालतः हनुमतः पुच्छतः उषर्बुधः आविर्बभूव, उन्मिमेष उत्थितवान्, अग्निः उत्थितवान्। उन्मिमेष इत्युक्ते उत्थितवान्, यथा उन्मीलनं निमीलनम् इति नेत्रयोः विषये पश्यामः, तथैव प्रकटनम् उन्मिमेष। कर्णिकार निकुरुम्ब कर्पूरः इत्युक्ते कनकपुष्प एव कर्णिकारपुष्पं, कनकपुष्पस्य गुच्छं निकुरुम्बम्। निकुरुम्बः इत्युक्ते पुष्पगुच्छ, कर्णिकारपुष्पस्य गुच्छः इव तद् सः अग्निः कर्पूरः आसीत्, शबलवर्णः, बहुवर्णवर्णितः इति अर्थः। शबलवर्णः इत्युक्ते बहवः वर्णाः यस्मिन् दृश्यन्ते तादृशं। यदा कदाचित् अग्नौ वयम् इतरवर्णानपि पश्यामः तथा करकपुष्पस्य गुच्छः इव शबलवर्णः, वेरिगेटेड् कलर्स् इति। निर्निमेषगणभाग्यसञ्चयात् कथं निर्मर्यादं निस्सीमं कथं अग्निः प्रकटितः अभवत्? देवानां भाग्यसमृद्धेः हेतोः। निर्निमेषगणः, पश्यतु पूर्वमेव वयं दृष्टवन्तः अनिमेषगणः इति दृष्टवन्तः, येषां निमेषः न भवति, नेत्रयोः निमीलनम् उन्मीलनं, नेत्रयोः स्फुरणमेव न भवति, नेत्रयोः स्पन्दनं न भवति देवानाम्, अतः ते निर्निमेषाः। निर्निमेषगणः देवगणः, देवगणानां भाग्यसमृद्धेः भाग्यसञ्चयात्, सञ्चयः समृद्धिः, भाग्यस्य सञ्चयात्, भाग्यसमृद्धेः कारणात्, देवानां भाग्यसमृद्धेः कारणात्। एवं निर्मर्यादं सीमां विना उन्मिमेष प्रादुर्बभूव प्रकटितः अभवत्। कः? भगवान् वह्निदेवः। इत्युक्ते अत्र निर्णयविषयं निर्मर्यादम् इति किमर्थम् उक्तम् इत्युक्ते, देवानां हितम् आचरन् अग्निदेवः तथैव प्रकटितः अभवत् यथा हनुमतः हिताय भवति, न तु राक्षसाः यथा इष्टवन्तः तथा। अतः एव परिमितिं विना, राक्षसाः यथा चिन्तयन्ति तथा अग्निः अत्र न समाचरति, यथा देवानां हितं भवेत्, देवकार्यं यथा सिद्धं भवेत् तथा अग्निः अत्र समाचरति, व्यवहरति इति अत्र आशयः। आकाङ्क्षां पश्यामः, उन्मिमेष विष् इति धातो विशति, उत् उपसर्गपूर्वकम् उन्मिमेष लिट्लकारः। कः उन्मिमेष? उषर्बुधः अग्निः। कीदृशः उषर्बुधः? भगवान्। पुनः कीदृशः उषर्बुधः? कर्णिकार निकुरुम्ब कर्पूरः, बहुवर्णवर्णितः कर्णिकारपुष्पगुच्छः इव दृश्यमानः अग्निः। कथम् उन्मिमेष? निर्णयाविषयं, निर्णया अत्र क्रियाविशेषणपदम्। कस्मात् हेतोः निर्णयाविषयम् उन्मिमेष? केन कारणेन एवं निर्मर्यादं सः प्रकटितः अभवत्? निर्निमेषगणभाग्यसञ्चयात्, देवगणानां भाग्यसमृद्धेः कारणात्, तेषां पुण्यफलात् इति अर्थः। कुतः उन्मिमेष? वालतः पुच्छतः। कस्य वालतः? अस्य हनुमतः। अन्वयः भवति, अस्य वालतः कर्णिकार निकुरुम्ब कर्बुरः भगवान उषर्बुधः निर्निमेष गणभाग्य संचयात् निर्णया विषयम् उन्मिमेष। अत्र कविः उन्मिमेष इति क्रियापदं बहु केन कारणेन चितवान् इत्युक्ते श्लोके चमत्कृतिम् उत्पादयितुमेव। देवगणानां विषये सः निर्निमेषगणः इति उक्तवान्। अतः निर्निमेषगणभाग्यसञ्चयात् अग्निः उन्मिमेष प्रकटितः अभवत् इति एतस्य अर्थः अस्ति श्लोकस्य। रावणस्य आदेशानुसारेण राक्षसाः आञ्जनेयस्य पुच्छम् अग्निसात् कृतवन्तः। तदा तत् पुच्छतः आञ्जनेयस्य पुच्छतः देवगणानां भाग्यसमृद्धेः हेतोः निर्मर्यादम् इमां विना कनकपुष्पगुच्छतुल्य शबलवर्णः अग्निदेवः प्रादुरभूत्। कर्णिकारनिकुरुम्ब कर्बुरः इत्युक्ते कर्णिकारस्य निकुरुम्बः गुच्छः, कर्णिकारनिकुरुम्बः इव कर्बुरः। कर्बुरः इत्युक्ते शबलवर्णः, मिक्स्ड् कलर्स् इति अर्थः। निर्निमेषगणभाग्यसञ्चयात् निर्गतः निमेषः येभ्यः ते, निमेषः इत्युक्ते नेत्रयोः स्पन्दनं, निमीलनम् उन्मीलनं वा, निर्निमेषाः भाग्यस्य सञ्चयः, भाग्यसञ्चयः निर्निमेषाणां भाग्यसञ्चयः इत्युक्ते देवानां भाग्यसञ्चयः, निर्निमेषगणभाग्यसञ्चयः। तस्मात् अग्रे गद्यभागः अस्ति, तं भागं पठामः। एतत् वृत्तान्तम् आरक्षिक राक्षसी गण गर्वो दीर्ण वर्णितम् आकर्ण्य।
आरक्षिक राक्षसी कर्णै
गर्वो दीर्ण वर्णितम्
गर्वोदीर्णवर्णितम्
दूयमानमनसा जानकी, उताशनम् उपस्थाय इतो भव हनूमतः, इति प्राञ्जलिः प्रार्थयत, एतत् वृत्तान्तम्। अत्र एवं भवति, एतस्य दोषान् उद्घोषयन्तः सर्वत्र राक्षसाः एतं वानरं नयन्ति इति वार्ताम् अशोकवनिका अपि, सा वार्ता प्राप्ता। अशोकवनिकायां विद्यमान राक्षस्यः ताः गत्वा सीतां वदन्ति, एतद् वृत्तान्तम्, एतं वृत्तान्तं वदन्ति। किं वदन्ति? एवं कश्चन वानरः यद् यः अत्र आगतवान्, सः रावण दण्डनस्य रावण दण्डनं रावणात् दण्डनं प्राप्य इदानीं सर्वत्र नियमानः अस्ति, तस्य लाङ्गूलः उद्दीप्तः, तथैव सः बद्धः, सर्वत्र नियमानः अस्ति इति विषयं सीतादेवी श्रुतवती। सा किम् उक्तवती, सा किं कृतवती इति अत्र वर्णितम्। एतत् वृत्तान्तम्, तस्य वानरस्य पुच्छं वस्त्रवेष्ट अग्निना ज्वालितः ततः रावणभटैः निन्द्यमानः प्रह्रियमाणः नगरं परितः भ्राम्यमाणः अस्ति सः वानरः इति हनूमतः विषये अशोकवनिकायां नियुक्ताः राक्षस्यः तां सीताम् उक्तवत्यः। तद् वचनं, तं वृत्तान्तं श्रुत्वा दूयमानमनसा जानकी, व्यथित मनसा, मनः दूयते इत्युक्ते किं, मनः व्यथते, दुःखम् अनुभवति, दूयमान मनसा जानकी, व्यथिता जानकी, हुताशनम् उपस्थाय, अग्निम् अग्निदेवं स्मृत्वा तस्तम् तस्य तं संप्रार्थ्य शीतो भव हनुमतः, हनुमतः त्वं शीतः भव हे अग्नि देव इति प्राञ्जलिः अञ्जलिं बद्ध्वा प्रार्थयत, सा प्रार्थितवती अग्निदेवं पूजयित्वा उपस्थाय प्रार्थित उपतिष्ठते। वाल्मीकिरामायणे किम् उक्तम्, उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्, प्रयता इत्युक्ते जितेन्द्रिया पतिव्रता इति, उपतस्थे सा विशालाक्षी सीतादेवी पूजितवती, कं पूजितवती, हव्यवाहनम् अग्निम्, हव्यवाहनः अग्निः तं पूजितवती, यद्यस्ति पशुशुश्रूषा पतिशुश्रूषा यद्यस्ति चरितं तपः यदि वा एकपत्नी त्वं शीतो भव हनुमतः इति सा पूजितवती, यदि मम पतिशुश्रूषा काचित् अस्ति, यदि मम तपः अस्ति, मया चरितं तपः अस्ति, यदि वा मम भर्तुः एकपत्नीत्वम् अस्ति सत्यं, तर्हि त्वं शीतः भव इति अग्निं सा प्रार्थयति। तत्र वाल्मीकिरामायणे न केवलम् एकस्मिन् श्लोके, पञ्चषट् श्लोकेषु एवं शीतो भव हनुमतः इति सीतादेवी अग्निदेवं कथं प्रार्थयते इति वचनम् अस्ति, तद् तत्र अवश्यं पश्यन्तु। श्लोकसङ्ख्या 53 तमे सर्गे 53, तत्र श्लोकसङ्ख्या 26-30 पर्यन्तम् अस्ति। अग्निं यदा प्रार्थितवती सीतादेवी तदा किम् अभवत् इति पश्यामः। घोरस्य राघव कळत्र तपोमयाग्नेः,
घोरस्य राघव कळत्र तपोमयाग्ने,
मा भूवम् इन्धनमहं क्षणमित्यवेत्य,
मा भूवहम् इन्धनम्
शैत्यं वितत्य दहनः,
शैत्यं वितत्य दहनः
पवमानसूनोः,
पवमानसूनोः
बालाग्रसीम्नि मणिदीप,
बालाग्रसीम्नि मणिदीप
इवावतस्थे,
इवावतस्थे।
पश्यतु पूर्वतनश्लोके उपतस्थे सीतादेवी अग्निम् उपस्थाय, अत्र वाल्मीकिश्लोके उपतस्थे इति आसीत् किल, यदा उपतस्थे इत्युक्ते पूजितवती, अत्र अवतस्थे स्थितवान् अग्निः, कथं स्थितवान्, तस्याः पूजां गृहीत्वा विनयेन आदरेण तस्याः प्रार्थनां, सीतादेव्याः प्रार्थनां गृहीत्वा स्वयमपि भीतः, अग्निः अहं, किन्तु सीतादेवी स्वयम् अग्निस्वरूपा अस्ति तस्याः पातिव्रत्यत्वकारणेन, अतः कदाचित् तेन एव, तस्याः एव पातिव्रत्य अग्निना अहं कदाचित् दग्धः न भवेयम् इति मनसि निधाय सः यथा सीतादेवी तं प्रार्थितवती तथा सः शीतः भूत्वा स्थितः इति भावः। पदच्छेदं पश्यामः। घोरस्य राघवकळत्र तपोमयाग्नेः, मा भूवम् इन्धनम् अहं क्षणम् इति अवेत्य, शैत्यं वितत्य दहनः पवमानसूनोः वालाग्रसीम्नि मणिदीपः इव अवतस्थे। प्रतिपदार्थं पश्यामः घोरस्य तीव्रस्य। राघवकळत्र तपोमयाग्नेः, राघवस्य कळत्रं राघवभार्या सीतायाः तपोमय अग्नेः पातिव्रत्य रूपवह्नेः। मा भुवं न भवेयम् इन्धनम् अहम्। किं न भवेयम् इन्धनम्? इन्धनम् इत्युक्ते एधः, फ्यूल् इति अर्थः। गीताश्लोके एधांसि इति पदमस्ति, यथैधांसि। क्षणम् इति क्षणमात्रेण, अवेत्य, अवेत्य इत्युक्ते अवगत्य, विदित्वा। शैत्यं वितत्य, शैत्यं विस्तार्य, वितत्य वितनोति, विस्तारयति। शैत्यं वितत्य, सामान्यतया अग्नेः गुणः कः? औष्ण्यमेव विस्तारयति किल, किन्तु अत्र अग्निः स्वस्वभावात् विपरीतं समाचरति, शैत्यं विस्तारयति। शैत्यं वितत्य दहनः अग्निः पवमानसूनोः, मारुतेः पवनपुत्रस्य बालाग्रसीमनि, लाङ्गूलाग्रभागे। मणिदीपः इव, मणिमयः दीपः इव इत्युक्ते रत्नः, रत्नमस्ति किल, तद् कान्तिमत् अस्ति, ज्वलन् इव दृश्यते, प्रकाशमान् अस्ति, प्रकाशवान् अस्ति, किन्तु किं तद् दहति, तस्य औष्ण्यं न भवति किल, तथा मणिमयः दीपः इव अवतस्थे स्थितवान्। अन्वयः, घोरस्य राघवकळत्र तपोमयाग्नेः क्षणम् अहम् इन्धनं मा भूवम् इति अवेत्य, दहनः शैत्यं वितत्य पवमानसूनोः बालाग्रसीम्नि, मणिदीपः इव अवतस्थे। हनुमतः लाङ्गूलाग्रभागे प्रज्वलितः अपि अग्निः। सीतायाः घोरं तपः स्मरन्, तस्याः घोरं तपः कीदृशम् इति जानन्, सम्यक् ज्ञात्वा, तादृशस्य घोरतपसः अहम् इन्धनं मा भवेयम्, तदग्नेः अहम् एधः मा भवेयम्, काष्ठाग्निरूपम् इन्धनम् अहं न भवेयम् इति मनसि निधाय आत्मनः तापम् उपसंहृतवान् अग्निभगवान् स्वस्य तापमेव निगृहीतवान्। यत् तस्य स्वभावः अस्ति तपनस्वभावः, तद् सः सङ्कुचितवान्, तस्य प्रसारार्थं सः अनुमतिं न दत्तवान्, उपसंहृतवान्। हनुमतः कृते शैत्यं सम्प्रसार्य पुच्छाग्रभागे स्थितः कान्तिमत् रत्नमिव ज्वलितवान् अग्निः इति। अत्र वाल्मीकिरामायणे कथम् एतद् वर्णितमस्ति इति पश्यामः। अत्र श्लोकत्रयमस्ति, तत् पश्यामः। ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो नलः, जज्ज्वालमृगशावाक्ष्याः शंसन्निव शुभं कपेः। तीक्ष्णार्चिः, यस्य रश्मयः तीक्ष्णाः भवन्ति, सः कथं जज्ज्वाल कपेः, यथा शुभं भवेत् तथा जज्ज्वाल, तथा ज्वलितवान्। कपेः यथा शुभं भवेत्, सीतायाः अपि यथा शुभं भवेत्, तथा मृगशावाक्ष्या इत्युक्ते मृगनयनी इति वदन्ति किल, तथा मृगनयन्याः सीतादेव्याः शुभं, कपेः शुभं यथा भवेत्, तस्याः वचनं, शंसन् तस्याः वचनं समादृत्य सः ज्वलितवान्, शीतः भूत्वा ज्वलितवान्। हनुमज्जनकश्चैव उच्छानलयुतो निलः, ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः। कथमत्र सीतादेव्याः तपः, अग्नेः अपि सङ्कल्पः, अनन्तरम् आञ्जनेयस्य पिता पवनः, पवनस्य अपि साहाय्येन आञ्जनेयस्य सह अग्निः आञ्जनेयम् आञ्जनेयस्य तापमेव न करोत् इति वाक्यमस्ति। हनुमज्जनकश्चैव, हनुमतः जनकः, पुच्छानलयुतो अनिलः, अनलः इत्युक्ते अनिलः इत्युक्ते वायुः, पुच्छ आञ्जनेयस्य पुच्छे यः अनलः अस्ति, अग्निः अस्ति, तत्र विद्यमानवायुः भूत्वा इति अर्थः। पिता किं कृतवान्? पवनपुत्रः किल हनुमान्, अतः पुत्रस्य संरक्षणाय सः पुच्छे यत्र अग्निसात् कृतः सः तस्मिन् भागे विद्यमानवायुः भूत्वा, पुच्छप्रदेशे विद्यमानवायुः भूत्वा, अनिलः भूत्वा ववौ वातवान्, तथा प्रवाहं कृतवान् वायुः, येन किम् अभवत्? स्वास्थ्यकरः अभवत्। कस्याः? देव्याः, सीतायाः अपि तद् स्वास्थ्यकरः अभवत्। इत्युक्ते किम्? तस्याः अपि शुभङ्करः अभवत्। प्रालेयानिलशीतलः, प्रलयसमये कदाचित् प्रलयाग्निः इति अपि वदन्ति, प्रलयसमये शीतलं जलमेव सर्वत्र भवति, तथा प्रालेयानिलशीतलः, प्रलयसमये यथा शीतलः वायुः भवति तथा अभवत् तस्मिन् समये। बाले यत्र अग्निः आसीत् तं परितः विद्यमानवायुः इति। अतः अत्र सीतादेव्याः प्रार्थना पितुः साहाय्यं, स्वयम् अग्नेः अपि सङ्कल्पः इति विषयत्रयं वाल्मीकिरामायणे विस्तरेण वर्णितं। तदत्र चम्पूरामायणे कविः संक्षेपेण वदति। पुनः सीतायाः विषयः अत्र, सीतायाश्चान्द्रिशंस्येन ते च सा राघवस्य च, पितुश्च मम सख्येन न मां दहति पावकः। आञ्जनेयः चिन्तयति, यदि वाल्मीकिरामायणं वयं पठामः तत्र एतेषु श्लोकेषु आञ्जनेयस्य चिन्तनमपि भवति। सः चिन्तयति, कथम् अग्निः मां न दहति एव, कथमहम् एतस्य औष्ण्यं न अनुभवामि इति चिन्तयति। तदा सः स्वयमपि तस्य उत्तरं वदति, सीतायाः आन्द्रिशंस्येन, सीतायाः करुणया, राघवस्य तेजसा च, मम पितुः च सख्येन, पवनः अग्नेः सखा किल, अतः मम पितुः च सख्येन पावकः अग्निः मां न दहति। इति वदति। अत्र व्याकरणविषयान् पश्यामः, राघवकळत्र तपोमयाग्नेः, यदा वयं वाल्मीकिरामायणे अपि ध्यानश्लोकान् पठामः तत्र सुन्दरः श्लोकः अस्ति, आदाय तेनैव ददाहलङ्कां मारुतिं नमत राक्षसान्तकम्, उल्लङ्घ्य सिन्धौ सलिलं सलिलं, सलिलं सिन्धोः सलिलं समुद्रजलं, सलिलं उल्लङ्घ्य क्रीडया उल्लङ्घनं कृत्वा, उल्लङ्घ्य सिन्धौ सलिलं सलिलं, यः शोकवह्निं जनकात्मजायाः, जनकात्मजायाः शोकाग्निम् एव आदाय स्वीकृत्य, तेन अग्निना एव सः लंकां दग्धवान् इति वयं ध्यानश्लोकं पठामः। तथा राघव कलत्र तपोमयाग्नेः, राघवस्य कलत्रं, राघव कलत्रं, कलत्रं नाम भार्या, कलत्रम् इति नपुंसकलिंग पदम्, यद्यपि स्त्रीलिंगसूचकं तथापि तपोमयः अग्निः, तपोमयाग्निः, राघवकलत्रस्य तपोमयाग्निः, राघवकलत्र तपोमयाग्निः तस्य। मा भूवं, पूर्वमेव वयम् एतादृश श्लोकान् पठितवन्तः यत्र लुं प्रयोगः लोटर्थे भवति। वस्तुतः लुं लकारः एव अभूत्, अभूताम्, अभूवन् इति भवति किल, अत्र मा अभूवम् इति भवेत्। अद्यतनभूतकालार्थः लुङ् लकारः, किन्तु अत्र अहं मा भवेयम् इति अर्थे प्रयुक्तः अस्ति किल, तस्य कः अर्थः? यदा मा माङ् योगे भवति तदा लुङ् लकारः लोटर्थं सूचयति। पुनः माङ् न मां योगे इति सूत्रेण यदा मा प्रयोगः भवति तर्हि तत्र अडागमनिषेधः भवति, अकारस्य निषेधः भवति, अकारः न भवति। अभूवम् इति अ इत्यस्य भवति, लोपः भवति, मा भूवम् इति रूपम्, न भवेयम् इति अर्थः। गीतायां बहवः श्लोकाः तथा अस्ति। प्रसिद्धः श्लोकः अस्ति क्लैव्यं मा स्मगमः पार्थ, क्लैव्यं मा अगमः पार्थ। तथैव कर्मण्येवाधिकारस्ते अपि मा ते सङ्गोस्तकर्मणि, तस्मिन् श्लोके अपि अयं प्रयोगः अस्ति। अवेत्य इति सहायकक्रियापदमस्ति किल, ल्यबन्तम्, इणुगतौ, इणुधातुः, गत्यर्थकधातुः, बुद्ध्यर्थक बुद्ध्यर्थमपि सूचयति। यथा गच्छति गत्यर्थकं, किन्तु अव इति उपसर्गयोगेण किं भवति? अवगच्छति। तथैव अवेत्य, इणुगतौ, एति, अवेत्य, अवगत्य इति अर्थः। वितत्य, तनुविस्तारे, तनोति, तनोति, प्रसरति, वितत्य, विस्तार्य इति अर्थः। वितनोति ल्यबन्तं रूपं वितत्य। अग्रे गद्यभागं पश्यामः। तदनु,
तदनु
पवनतनयः,
पवनतनयः अपि,
उरम् इदं न खलु सुव्यक्तं नक्तम् आलोकयम्,
उरमिदं न खलु सुव्यक्तं नक्तम् आलोकयम्,
तस्मात् अनलसाक्षिकम् एव,
तस्मात् अनलसाक्षिकम् एव,
उरम् अखिलम् आलोकयामि इति,
पुरम् अखिलम् आलोकयामि इति,
यामिनीचरगणम्,
यामिनीचरगणम्,
परिचिततोरणपरिघेण जघान,
परिचिततोरणपरिघेण जघान।
तदनु, तदनन्तरम्, आञ्जनेयः अपि बद्धः अभवत्, सः सर्वत्र नियमानः अस्ति राक्षसैः। तदनु, तस्मिन् सन्दर्भे, तदनन्तरं सः किं चिन्तितवान्? पवनतनयः अपि, पूर्वमपि अहं लङ्कानगरीं दृष्टवान्, किन्तु तदा रात्रौ दृष्टवान्, नक्तं दृष्टवान्, नक्तम् अहं सर्वमपि अत्र सम्यक् द्रष्टुं न शक्यम् आसीत् मया। केन कारणेन? तद् सर्वत्र कथं व्यवस्था भवति, कुत्र कुत्र द्वाराणि सन्ति, कुत्र प्रवेश द्वारमस्ति, भित्तयः कथं सन्ति, दूतस्य कार्यम् एतदपि भवति, न केवलं राज्ञा मेलनम् अथवा दौत्याचरणं, दूतस्य अपरमपि कार्यं भवति यत् नगरविषये नगरस्य सुरक्षाव्यवस्था कथमस्ति इत्यादिकं ज्ञात्वा आगच्छेत् दूतः. अतः तदपि अहं पश्येयं कथमस्ति इति विचिन्त्य तदनु तदनन्तरं पवनतनयः पुरम् इदं लङ्कापुरम् इदं न खलु सुव्यक्तं सुस्पष्टं स्फुटतया नक्तम् आलोकयम्. रात्रिः आसीत् इति कारणेन अहमेतद् नगरं स्फुटतया द्रष्टुं न शक्तवान्. तस्मात् अनलसाक्षिकमेव, इदानीम् अग्निः साक्षीरूपेण अत्र अस्ति मया सह, अतः अनलसाक्षिकमेव पुरम् अखिलम् आलोकयामि. अखिलम् इत्युक्ते समग्रम्, अखिलम् इत्युक्ते भागः, अखिलं पूर्णम् इति अर्थः. अखिलम् आलोकयामि इति यामिनीचरगणम्, यामिनी इत्युक्ते रात्रिः, निशिचरगणः इति दृष्टवन्तः. यामिन्यां चरन्ति इति यामिनीचरः, चराः तेषां गणः. तं गणं पुनः राक्षसान् परिचिततोरणपरिघेण, पूर्वं राक्षसान् कथं सः ताडितवान्, कथं प्रहृतवान् तोरण अर्गलेन, बृहद्वाराणि तेषाम् अर्गलानि स्वीकृत्य सः राक्षसान् ताडितवान्, तथैव पुनः इदानीं कृतवान्. यामिनीचरगणं राक्षसगणं परिचिततोरणपरिघेण, पूर्वं येन तोरण अर्गलेन तान् ताडितवान् तेनैव तोरण अर्गलेन जघान मारितवान्, तेषां प्रहारं कृतवान् इति अर्थः. ततः ततः परम् अग्निसात् कृतेन पुच्छेन सह वर्तमानः हनुमान् इमां नगरीं रात्रौ स्फुटतया न खलु वीक्षितवान् अहम्, तस्मात् अग्निं साक्षिणं कृत्वा समग्रां लङ्कां निर्विघ्नं पश्यामि अधुना. एते परितः भवन्ति राक्षसाः चेत् अहं स्वच्छन्दतया द्रष्टुं न शक्नुयां किल, अतः तान् सः ताडितवान् मारितवान्. पूर्वमेव राक्षसान् प्रहर्तुं यद् अर्गलमासीत् तेन अर्गलेन परितः स्थितं रक्षोगणं सः हतवान्. तस्मात् सः पाशात् मुक्तः सन् गृहात् गृहं गच्छन् उद्यानानि वीक्षमाणः विहरति स्म. कथं पाशात् मुक्तः अभवत् हनुमान्? पाशैः बद्धवन्तः राक्षसाः किल, कथं मुक्तः अभवत् इत्युक्ते, तत्र वाल्मीकिरामायणे सुन्दरश्लोकः अस्ति, अग्रे तद् वयं पठिष्यामः. आञ्जनेयः अत्र किं चिन्तितवान्? अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये. निशाक्षये इत्युक्ते सायङ्कालात् पूर्वमेव. कामं बध्रन्तु मे भूयः, पुच्छस्य उद्दीपनेन च पीडां कुर्वन्ति रक्षांसि, न मेऽस्ति मनसः श्रमः. यद्यपि एते राक्षसाः मम पीडां जनयन्ति, तथापि मनसः श्रमः न भवति. कायस्य श्रमः भवेत्, किन्तु मनसः श्रमः न भवत्येव. तथा स आत्मवान् अस्ति आञ्जनेयः, तस्य देहाभिमानः नास्ति इति. अतः स मनसः श्रमः नास्ति, कायस्य श्रमः भवति चेत् भवतु नाम इति विचिन्त्य सः तद्विषये निश्चिन्तः तिष्ठति इति. अत्र एतं विषयम् उक्त्वा अहं समापयामि. कथं सः पाशात् मुक्तः जातः? वयं पूर्वं पठितवन्तः यत् राक्षसाः तं पाशैः तस्य बन्धनं कृतवन्तः, अनन्तरं तस्य लाङ्गूलस्य वेष्टनं कृत्वा अपि तं सर्वत्र नीतवन्तः. अत्र वाल्मीकिरामायणे तस्य वर्णनमस्ति, स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान्। सः पर्वतसदृशः विशालः अभवत्, कामरूपः किल, कथमपि रूपं स्वीकरोति, सूक्ष्मरूपधरिस्य हि दिखावा इति, स्थूलरूपधरि लङ्कजरावा इति अस्ति किल हनुमान् चालीसा मध्ये। सः भूत्वा शैलसङ्काशः, पर्वतः इव भूत्वा क्षणेन ह्रस्वतां परमां प्राप्तः, पुनः झटिति लघुः अभवत्। तेन किम् अभवत्? बन्धनानि अवशातयत्, तेन तानि बन्धनानि सर्वाणि अपि शिथिलानि अभवत्। विमुक्तश्चाभवत् श्रीमान् पुनः पर्वतसन्निमः, यदा बन्धनात् विमुक्तः अभवत् पुनः विशालः अभवत्, पर्वतसदृशः अभवत् इति। अत्र अस्मिन् श्लोके यद्वयम् अग्रे पठिष्यामः अग्रिमवर्गे, तद् सः श्लोकः बहु सुन्दरतया उत्प्रेक्षितवान् अस्ति कविः। लङ्कामेव, लङ्कायां यद् आञ्जनेयेन क्रियमाणः विध्वंसः समुद्रमन्थनदृश्येन सह उत्प्रेक्ष्य अत्र वर्णयति, तद् वयम् अग्रिमवर्गे पठिष्यामः। अत्र शान्तिमन्त्रम् उक्त्वा समापयामः। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःख भवेत्।
ॐ शान्ति शान्ति शान्ति।
नमस्कारः, शुभरात्रिः, पुनर्मिलामः।